अथ अष्टम स्कंध
अथ तृतीयोध्याय गजेन्द्र के द्वारा भगवान की स्तुति और उसका संकर्ष मुक्त होना। श्री शुक उवाच एवं व्यवसित बुद्ध्या समाधाय मनो हृदय जजाप परमं जाप्यं प्राग्जन्मन्यं शिक्षितं। गजेन्द्र उवाच ओम नमो भगवते तस्मै यत एतच्चिदात्मकम् पुरुषायादिबीजाय परेशायाधीमहि जस्मिन्निदं जतश्चेदं जेनेदं ययिदं स्वयं यस्मात् परस्माच्च परस्तं प्रपद्ये स्वयं भुवम्। यः स्वात्मनीदं निजमायार्पितं क्वचिद् विभातं क्वच तत्तिरोहितम् अभिद्धदृक्साक्षुभयं तदीक्षते सायात्ममूलोऽवतु मां परात्परः। कालेन पञ्चत्वमितेष्कृतश्नशो लोकेषु पालेषु च सर्वहेतुषु तमस्तदासीद् गहनं गभीरं यस्तस्य पारेऽभिविराजते विभुः। नजस्य देवारिषयः पदं विदुर् जन्तुः पुनः कोऽर्हति गन्तुमीरितुम् यथा न कस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणः समावतु। दिदृक्षवो यस्य पदं सुमङ्गलम् विमुक्तसङ्गामुनयः सुसाधवः चरन्त्यलोकव्रतमव्रणं वने भूतात्मभूतः सुहृदः समे गतिः। न विद्यते यस्य च जन्म कर्म वा न नाम रूपे गुणदोष एव वा तथापि लोकात्ययसम्भवाय यः स्वमायया तान्ननुकालमृच्छति तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये अरूपायोरुरूपाय नमः आश्चर्यकर्मणे नमः आत्मप्रदीपाय साक्षिणे परमात्मने नमो गिरां विदुराय मनसश्चेतसामपि सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता नमः कैवल्यनाथाय निर्वाणसुखसंविदे। नमः शान्ताय घोराय मूढाय गुणधर्मिणे निर्विशेषाय साम्याय नमो ज्ञानघनाय च क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे पुरुषायात्ममूलाय मूल प्रकृतये नमः। सर्वेन्द्रियगुणद्रष्टे सर्वप्रत्ययहेतवे अस्ताच्छायुक्ताय सदाभासाय ते नमः। नमो नमस्तेऽखिलकारणाय निष्कारणायाद्भुतकारणाय सर्वागमाम्नाय महार्णवाय नमोपवर्गाय परायणाय गुणारणिच्छन्नचिदुस्मपाय तक्षोभ विस्फुर्जितमानसाय नैष्कर्म्यभावेन विवर्जितागम स्वयं प्रकाशाय नमस्करोमि। माद्रिप्रपन्नपशुपाशविमोक्षणाय मुक्ताय भूरिकरुणाय नमोलयाय स्वांशेन सर्वतनुभृन्मनसि प्रतीत प्रत्यग्दृशे भगवते बृहते नमस्ते। आत्मात्मजाप्तगृहवित्तजनेषु शक्तैर्दुष्प्रापणाय गुणसङ्गविवर्जिताय मुक्तात्मभिः स्वहृदये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय। यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति किं त्वाशिशोरात्यपि देहमव्ययम् करोतु मे दभ्रदयो विमोक्षणम्। एकान्तिनो यस्य न कञ्चनार्थम् वाञ्छन्ति ये वै भगवत्प्रपन्नः अत्यद्भुतम् तच्चरितम् सुमङ्गलम् गायन्तयानन्दसमुद्रमग्नः तमक्षरम् ब्रह्म परम् परेशम् अव्यक्तमाध्यात्मिकयोगगम्यम् अतीन्द्रियम् सूक्ष्ममिवाति दूरम् अनन्तमाद्यम् परिपूर्णमीडे। यस्य ब्रह्मादयो देवा वेदालोकाश्चराचर नाम रूप विभेदेन फलव्या च कलया कृतः यथार्थ सुग्नेः सवितुर्गभस्तयो निर्यान्ति संयान्तसकृत्स्वरोचिसः तथा जतोऽयं गुणसंप्रवाहो बुद्धिर्मनः खानि शरीरसर्गः स वै न देवासुरमर्ततिर्यं न स्त्री न षण्डो न पुमान् न जन्तुः नायं गुणः कर्मनसन्न चासन् निषेधशेषो जयतादशेषः जिजीविषे नाहमिहामया किम् अन्तर्बहिश्चाभृतैभियुन्या इच्छामि कालेन न जस्य विप्लवास्तस्यात्मलोकावरणस्य मक्षम् सोऽहम् विश्वसृजम् विश्वम् अविश्वम् विश्ववेदसम् विश्वात्मानमजम् ब्रह्म प्रणतोऽस्मि परम् पदम् योगरन्धित कर्माणो हृदि योग विभाविते योगिनोऽयम् प्रपश्यन्ति योगेशम् तम् नतोऽस्म्यहम् नमो नमस्तुभ्यमसह्य वेग शक्तित्रयायाखिलधि गुणाय प्रपन्नपालाय दुरन्तशक्तये कदिन्द्रियाणामनवाप्यवत्मने नायम् वेद स्वमात्मानम् यच्छक्त्याहम् धियाहतम् तम् दुरत्ययमाहात्म्यम् भगवन्तम् मितोऽस्म्यहम् श्रीशुक उवाच एवम् गजेन्द्रमुपवर्णितनिर्विशेषम् ब्रह्मादयो विविधलिङ्गभिदाभिमानः नैते जदोपशशिपुर्निखिलात्मकत्वात् तत्राखिलामर्मयो हरिराविरासीत् तम् तद्वदार्थमुपलभ्य जगन्निवासः स्तोत्रम् निशम्य दिविजहि सह संस्तुवद्भिः छन्दो मयेन गरुणेन समुह्यमानः चक्रायुधोऽभ्युगमदासुजतो गजेन्द्रः सन्तः सरसुरबलेन गृहीतयार्तो दृष्ट्वा गरुत्मतिहरिम् खौ पात चक्रम् उत्क्षिप्य शाम्बुजकरम् गिरमाह कृच्छ्रात् नारायणाखिल गुरो भगवन् नमस्ते तम् वीक्ष्य पीडितमदः सहसावतीर्य सग्राहमाशु सरसः कृपयोज्जहार ग्राहाद् विपाटितमुखादरिणा गजेन्द्रम् सम्पश्यताम् हरिरमोमुचदुश्रियाणाम् इति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टमस्कन्धे गजेन्द्रमोक्षणे तृतीयोऽध्यायः।